इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य आकाशवाण्याः मन की बात कार्यक्रमे अवोचत् यत् अन्तरिक्षक्षेत्रे समुन्नत्या युवानः लाभान्विताः जाताः। श्रीमोदी अवोचत् यत् सम्प्रति युवानः राजनीतौ बृहत्संख्यायां सक्रियाः जायन्ते। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य महाराष्ट्रस्य जलगांवनगरे आयोजिते कार्यक्रमे 11 लक्षं नूतनाभ्यः लखपतिदीदीत्येताभ्यः प्रमाणपत्राणि वितरितानि। अखिलभारतीय रेलगणसंघेन केन्द्र सर्वकारस्य एकीकृत पेंशन योजनायाः स्वागतं कृतम्। अपि च बैडमिंटन क्रीडायां भारतस्य तन्वी पात्री इत्येषा अद्य एशिया महाद्वीपीय कनिष्ठ चैम्पियनशिप स्पर्धायां एकल बालिका वर्गे विजयश्रीम् अवाप्नोत्। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी अद्य आकाशवाण्याः मन की बात कार्यक्रमे निजविचारान् प्रकटितवान्। मासिक रेडियो कार्यक्रमस्य एतत् 23-तमं संस्करणम् अवर्तत। प्रधानमन्त्री अवोचत् यत् अन्तरिक्षक्षेत्रे समुन्नत्या युवानः लाभान्विताः जाताः। अमुना उक्तं यत् देशे नैकानि तादृशानि कार्याणि जायन्ति यैः विकसिता भारतस्य आधारशिला सुदृढा भविष्यति। अस्य मासस्य 23 दिने देशवासिभिः प्रथमः अन्ताराष्ट्रियान्तरिक्षदिवसः चन्द्रयानतृतीयस्य च उत्सवः आमानितः। श्रीमोदी अवोचत् यत् अस्मिन् वर्षे रक्तदुर्गात् विहिताह्वानस्य प्रभावः अपि जनेषु दृश्यते। सम्प्रति राजनीतौ युवानः बृहत्संख्यायां सक्रियाः जायन्ते। प्रतिगृहं त्रिवर्णध्वजाभियानस्य विषये प्रधानमन्त्री अवदत् यत् काश्मीरम् अरुणाचलप्रदेशं च समेत्य देशस्य प्रत्येकं भागेषु त्रिवर्णध्वजयात्रायाः सुन्दराणि चित्राणि दृष्टिपथम् आगतानि। निजसम्बोधने प्रधानमन्त्रिणा असमस्य तिनसुकिया जनपदस्य बारेकुरी ग्रामस्योल्लेखः, मध्यप्रदेशस्य झबुआ जनपदस्य स्वच्छताकर्मिणां च उल्लेखो विहितः। सद्य एव आमानितस्य विश्व संस्कृत दिवसस्य विषये प्रवदन् प्रधानमन्त्री प्रोफेसर वायतिस विदुनास इत्यस्य चर्चाम् अपि अकरोत्। पेरिस नगरे आयोक्ष्यमाणानां पैरालम्पिक क्रीडानां भारतीय दलस्य समर्थनाय हैशटैग चीयर्स फॉर भारत इत्यस्य आवाहनम् अपि प्रधानमन्त्री अकरोत्। आगामि दिनेषु जन्माष्टमी, गणेश चतुर्थी, ओणम्, मिलाद उन नवी अथ तेलुगु भाषा दिवसेभ्यः प्रधानमन्त्रिणा देशवासिभ्यः शुभकामनाः प्रदत्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य महाराष्ट्रस्य जलगांवनगरे आयोजिते कार्यक्रमे 11 लक्षं नूतनाभ्यः लखपतिदीदी इत्येताभ्यः प्रमाणपत्राणि वितरितानि। श्रीमोदी लखपतिदीदी इत्येतासां कृते पोषयत् यः याः सद्य एव एनडीए प्रशासनस्य तृतीये कार्यकाले लखपतिदीदी इति पदं प्राप्तवत्यः। प्रधानमन्त्रिणा ताभिः अपि संवादः कृतः। अवधेयं वर्तते यत् एताः लखपतिदीदी इति प्रतिवर्षम् 1 लक्ष रूप्यकाधिकम् अर्जयन्ति। कार्यक्रमस्य समये श्रीमोदी 50-2000 कोटि रूप्यकाणां समुदाय निवेश कोषम् इति परिक्रमण निधिं प्राकाशयत्, येन हि 3000-4000 स्वसहायता समूहानां प्रायः 48 लक्षं सदस्याः उपकृताः भविष्यन्ति। जनसमूहं समबोधयन् प्रधानमन्त्री अवदत् यत् गत 10 वर्षेषु 1 कोटि महिलाः लखपतिदीदीः इति अभवन्। केवलं मासद्वये एव 11 लक्षं लखपतिदीदी इति योजिताः। श्रीमोदी राजस्थानस्य जोधपुरं सम्प्राप्तः। तत्रासौ राजस्थानोच्चन्यायालयस्य 75वें समारोहस्य समापनसत्रे मुख्यातिथित्वेन उपस्थितः। तत्र राजस्थानोच्चन्यायालयस्य संग्रहालयस्य उद्घाटनमपि प्रधानमन्त्री विहितवान्। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। पश्चिम बंगाल राज्ये केन्द्रीयान्वीक्षणाभियानेन कोलकाता नगरे आरजी कर चिकित्सकीय महाविद्यालयस्य चिकित्सालयस्य प्रशिक्षु महिलायाः हत्यायाः दुष्कर्मणः च प्रसंगे चिकित्सालयस्य वित्तीय अनियमिततायाः आरोपाणां सन्दर्भे अद्य प्रातः 15 स्थानानि निरीक्षणानि। विभागस्य एकं दलं चिकित्सकीय महाविद्यालयस्यास्य पूर्व प्रधानाचार्ये तस्यावासे परिपृच्छां समाचरति। अपरत्र नियुक्त प्रधानाचार्येण उपप्रधानाचार्येण च सह अन्यम् एकं विशिष्टं दलं परिपृच्छां करोति। एतदतिरिच्य विभागस्य अन्यं दलं प्राध्यापकेण देवाशीष सोमेन पूर्व चिकित्सालयीय अधीक्षकेण उपप्राचार्येण च डॉ संजय वशिष्ठेन सह तेषाम् आवासे परिपृच्छा कुरुते। भारतर्तु विज्ञान विभागेन पूर्वानुमानितः यत् राजस्थान मध्यप्रदेश महाराष्ट्र गुजरात सौराष्ट्र कच्छ क्षेत्रेषु अद्य महती वृष्टिः भविष्यति। मेघालय असम राज्ययोः अपि अतिवृष्टिः सम्भावितास्ति। तत्रैव अद्य उत्तरप्रदेश कर्णाटक तेलंगाना विदर्भ मराठवाड़ा क्षेत्रेष्वपि उच्चस्तरीया वृष्टिः प्रकल्पिता विभागेन। महाराष्ट्रे मंकीपॉक्स इति वानरजनित संक्रमणं निराकर्तुं राज्यस्य स्वास्थ्य विभागः पुणे नगरे कार्यम् आचरति। विगतेषु षड् दिनेषु पुणे विमानपत्तने सिंगापुर दुबई नगराभ्यां समागतानां 31.5% यात्रिणां परीक्षणं कृतम्। तेषु कोऽपि संक्रमितः नैव प्राप्तः। प्रख्यातस्य संदेशवाहकस्य टेलीग्राम इत्याख्यस्य अनुप्रयोगस्य संस्थापकः प्रमुख कार्यकारी अधिकारी च पावेल ड्यूरोव इत्येषः गतदिने पेरिस नगरस्य ले बार्गेट विमानपत्तनात् निगडितः। फ्रांस देशीयैः अधिकारिभिः ख्यापितं यत् ड्यूरोव इत्येतस्य निगडनं तस्य तन्त्रांशस्य अपराधैः संवलिप्तस्य प्रतिवेदनस्य अन्तर्गतं कृतम्। अयम् अनुप्रयोगः आपराधिक गतिविधीन् संवर्धयति इति। केन्द्रीयमन्त्री डॉ जितेन्द्रसिंहः नवदिल्लीनगरे अमेरिका भारत नागरिक परमाणु वाणिज्य विषये द्विपाक्षिक सम्मेलनस्य अध्यक्षतां निभालितवान्। विज्ञानं प्रौद्योगिकी मन्त्रालयः अद्य अवदत् यत् अस्यां सभायां विज्ञानं प्रौद्योगिकी स्वच्छोर्जा इत्यादिषु महत्वपूर्ण क्षेत्रेषु उभयोः राष्ट्रयोः मध्ये प्रगाढः सहकारः प्रकाश्यते इति। सभायां डॉ सिंह अघोषयत् यत् गगनयान अभियानस्य संस्थायाः एकः भारतीय अन्तरिक्षयात्री अन्ताराष्ट्रियान्तरिक्षकेन्द्रे भागं ग्रहीतुं सज्जः अस्ति, अथ च भारत अमेरिका अन्तरिक्षसहयोगस्य महत्वपूर्णं सोपानम् अस्तीति। ऑल इंडिया रेलवेमेन्स फेडरेशन इत्यनेन केन्द्र सर्वकारस्य एकीकृत पेंशन योजनायाः स्वागतं कृतम्। अखिल भारतीय रेलगण संघस्य महासचिवः शिवगोपाल मिश्रा अद्य नवदिल्ल्याम् अवोचत् यत् नूतन सेवा निवृत्ति वृत्ति योजनायां कर्मचारिणां सम्मर्शान् अनुरोधान् च निध्याय योजना निर्मितास्ति। एतदर्थं तेन कर्मचारिणां पक्षतः प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति आभारः प्रकटितः। केन्द्रीयमन्त्री चिराग पासवानः अद्य लोक जनशक्ति पार्टीति दलस्य अध्यक्षः निर्वाचितः। असौ आगामि पञ्चवर्षेभ्यः दलाध्यक्षः चितः। रांचीनगरे एलजीपीति दलस्य राष्ट्रिय कार्यकारिण्योपवेशने सर्वसम्मत्या अयं निर्णयः स्वीकृतः। अत्रान्तरे चिराग पासवानः अवोचत् यत् उपवेशने हरियाणा जम्मू कश्मीर झारखण्ड विधानसभा निर्वाचन विषये अपि चर्चा अभवत्। अमुनोक्तं यत् झारखण्डे लोक जनशक्ति पार्टीति दलं निज सहयोगिना भाजपा दलेन सह निर्वाचने प्रतिभागं करिष्यति। इति वार्ताः।